पथेनाञ्जलिनान तेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोत्कीर्ण बाष्पाम्बुना नित्यं त्वच्चरणारविन्दयुगलच्चनामृता स्वादिनाम् अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् नमामि नारायण पादपङ्कजं करोमि नारायण पूजनं सदा वदामि नारायण नाम निर्मलं